हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पद आन शृण्वन्नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिः वाजिनीवती धीरामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतयानो रुद्रमृडया याते रुद्र शिवा तनोरघोरापापकाशिनी तयानस्तनुभाषन्तमया गिरिशन्ताभिजाकषे यामिषुम् गिरिशन्तहस्ते विभर्ष्यस्तवे शिवाङ्गित्रताम् कुरु मायि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहेकश्च सर्वाजम्भयन् सर्वास्तयातु धान्यः असौ यस्ताम्रो अरुण उतमप्लस्वमङ्गलः ये चेमागुम् रुद्र अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेण इमहे असव्यो वसर्पतिनीलग्रेवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नदहार्यः उदैनम् विश्वाभूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय वीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करम् नमः प्रमुञ्च धन्वनस्त्वमुभयोरात्रियोर्जाम् याश्च ते हस्त इषवः पराता भगवो भव अवतत्यथ दुस्त्वगुम् सहस्राक्षशतेषु दे निषेद्य शल्यानामुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गतिः याते हेतिर्मीढुष्टवास्ते बभूवते धनुः तयास्मान् विश्वतस्त्वव यक्ष्मया परिभुज नमस्ते अस्त्वायुधाय नातताय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्त विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యవాహవే సేనాన్యే దిశాం చ పతయే నమో నమో వృక్షేభ్యో హరికేశేభ్య పశూనాం పతయే నమో నమః. సస్మింజరాయ త్వషీవతే పథీనాం పతయే నమో నమో. బభ్లుషాయ వివ్యాధినే నానాం పతయే నమో నమో. హరికేశాయోపవీతినే పుష్టానాం పతయే నమో నమో. భవస్య హేత్యై జగతాం పతయే నమో నమో. రుద్రాయ తతావినే క్షేత్రానాం పతయే నమో నమః. సూతాయ హంత్యాయ వనానాం పతయే నమో నమో. రోహితాయ స్తపతయే వృక్షాణాం పతయే నమో నమో. మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో. భువంతయే వారివత్కృతాయౌషధీనాం పతయే నమో నమ. ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ. కృష్ణవీతాయ ధావతే సత్వనాం పతయే నమః. నమః సహమానాయ నివ్యాధినావ్యాధినీనాం పతయే నమో నమః. కకుమాయణ శంగిణే సేనానాం పతయే నమో నమో. నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే నమో నమో. వంచతే పరివంచతే సాయోనాం పతయే నమో నమో. నిచేరవే పరిచరాయారణ్యానాం పతయే నమో నమః. శ్రీకాభ్యో జిగాగుం సద్భ్యో ముష్ణతాం పతయే నమో నమో. శివద్భ్యో రక్తం చరద్య ప్రకృందానాం పతయే నమో నమో. శ్రీశినే గిరిచరాయ కులుంచానాం పతయే నమో నమ. ఇషు మద్భ్యో ధన్వావిభ్యశ్చ మో నమో నమ. ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ మో నమో నమ. ఆయచ్ఛభ్యో విసృజభ్యశ్చ మో నమో నమ. స్యద్భ్యో విద్యభ్యశ్చ మో నమో నమ. ఆసీనేభ్యశ్రయాణేభ్యశ్చ మో నమో నమ. స్వపద్భ్యో జాగ్రభ్యశ్చ మో నమో నమ. తిష్టద్భ్యో దావభ్యశ్చ మో నమో నమ. సభాభ్యః సభాపతిభ్యశ్చ మో నమో నమః. అశ్వేభ్యో అశ్వపతిభ్యశ్చ మో నమః. నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ మో నమో నమ. ఉగణాభ్యస్తిగుంహతేభ్యశ్చ మో నమో నమో. గృత్సేభ్యో గృత్సపతిభ్యశ్చ మో నమో నమో. వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ మో నమో నమో. గణేభ్యో గణపతిభ్యశ్చ మో నమో నమో. విరూపేభ్యో విశ్వరూపేభ్యశ్చ మో నమో నమో. మహద్భ్యః క్షుల్లకేభ్యశ్చ మో నమో నమో. రథిభ్యో రథేభ్యశ్చ మో నమో నమో. రథేభ్యో రథపతిభ్యశ్చ మో నమో నమ. సేనాభ్యసేనానిభ్యశ్చ మో నమో నమః. శత్రుభ్యః సంగ్రహీతృభ్యశ్చ మో నమో నమ. రక్షద్భ్యో రథకారేభ్యశ్చ మో నమో నమ. कुलालेभ्यः कर्मारेभ्यश्च भो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च भो नमो नमः इषुगद्भ्यो धन्वगद्भ्यश्च भो नमो नमो मृगयोभ्यश्वरेभ्यश्च भो नमो नमः स्वभ्यश्वपतेभ्यश्च भो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कबर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविविष्टाय च नमो मेरुष्टवाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्र्याय च शेभ्याय च नमः ओर्म्याय च वत्सन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धियाय च नमः सोऽप्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमो उर्वर्याय च खल्याय च नमश्चोक्याय च वसान्याय च नमो वन्याय य च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च वभिन्दते च नमो वर्मिणे च वरोदिने च नमो भिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमशाय च नमो धूताय च प्रहिताय च नमो निषङ्गिणे चेशुधिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोऽद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमः ताराय नमः शम्भवे च वयोभवे च नमः शङ्कराय च वयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोल्याय च नमः भार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः शष्प्याय च पेन्याय च नमः सिकत्याय च प्रवाह्याय च नमायिरिण्याय च प्रपत्याय च नमः हेगुं शिलाय च क्षयणाय च नमः कबर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेशाय च नमो हृदयाय च निरेष्प्याय च नमः पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्याय च सोर्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमानाय च विघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीडकेभ्यो नमो विचिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आमि वक्केभ्यः द्रापे अन्धसस्वते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मामेर्मानोमो येषाम् किञ्चनाममत् या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमावम् रुद्राय तवसे कवर्दिने क्षयद्वेराय प्रवरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानोरुद्रोतनोमयस्कृति क्षयद्वेराय नमसा विदेवते यच्छम् च योश्च मनुराय जे पिता तदश्यामतवरुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मानौ क्षन्तमुतमानौ क्षितम् मानो भदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वने अविश्वन्तो नमसा विदेवते आराते गोघ्र उत पोरुषग्ने क्षयग्वेराय सुम् नमस्ते ते अस्तु रक्षाचरो अधिचदेव ब्रूह्यदाचरः शर्व यच्छद्विवरा स्तुहि श्रुतम् गत्त सदंयुगानम् मृगन्न भीममुपहत्त्वमुग्रम् मृडाचरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पत्सेनाः परिणो रुद्रस्य हेतिर्विणक्तुमरित्वेषस्य दुर्मतिरघायो अवस्तिरा भगवद्भ्यस्तनुष्वमीणुस्तोकाय तनयाय मृडया मीणुष्टव शिवतमशिवो न सुमना भव परमे वृक्ष आयुधम् निलाय कृत्तिम् वसान आचर पिनाकम् बिप्रदागहे विकिरिद विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्थुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगव पराचीरामुखाकृते सहस्राणि सहस्रशो ये रुद्रादिभौम्या तेषागुम् सहस्रयो जने वधन्वानि तन्मसि अस्मिन्महत्यर्नवेन्तरिक्षे भव अधि नीलग्रीवाश्रिकण्ठा शर्वा अधः क्षवाचरा नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोलिताः ये भूतानामधिपतयो विशिकासक्कमर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान् ये पताम् पतिरक्षय ऐरमृदायव्युदः ये तीर्थानि प्रचलन्ति शिकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रामितस्तिरे तेषागुंसहस्रयोजने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवत्तेभ्यो दश प्राचेद्दश दक्षिणा दश प्रतिचेद्दशो देचेद्दशो द्वास्तेभ्यो नमस्ते नो मृणयन्तु तेयम् दिश्वो यच्च नो द्वे स्थितम् भोजम् वेद त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योन्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वमुवना विवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रवयुसम्भाषा मृत्यो मर्त्यायन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो वा विशान्तकः तेनान्येनाप्यायस्वा नमो रुद्राय विष्णवे मृत्यवे पाहि त्वमस्तु यस्व शस्वदन्वायो विश्वस्य क्षयति मे सजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वपेश योयगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः अग्नाविष्टो सजोषसेवाबद्धन्तो वाङ्गिरः ज्युम्नैर्वाजे विरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे बाणश्च मे व्यानश्च मे सुश्च मे चित्तम् च म आधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च ओजश्च मे सहश्च आयुश्च मे चरा च आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे जैश्चम् च म आधिपत्यम् च मे मन्यश्च मे भामश्च मे मश्च मे मश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे भस्मा च मे द्रागुया च मे वृद्धम् च मे वृद्धश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे त्विषश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सोक्तं च मे स्वकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुखं च मे सुपतं च मरुद्धं च मरुद्धश्च मे कृप्तं च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शशश्च मे मयश्च मे प्रियं च मे नो कामश्च मे कामश्च मे सोमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संवेच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे स्थिरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ऊर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपेतिश्च मे कृशश्च मे वृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूय श्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कुयवाश्च मे नं च मे क्षुश्च मे देहयश्च मे यवाश्च मे माशाश्च मे तिराश्च मे मुद्गाश्च मे कल्वाश्च मे गोधूमा मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे स्थिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीसं च मे तपुश्च मे श्यामं च मे लोहं च मे अग्निश्च व आपश्च मे विरुधश्च व ओषधयश्च मे कृष्टपक्षं च मे कृष्टपक्षं च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च व एवश्च व इतिश्च मे गतिश्च मे अग्निश्च व इन्द्रश्च मे सोमश्च व इन्द्रश्च मे सविता च व इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च व इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विश्वश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसश्च मे रश्मिश्च मेधाभ्यश्च मेधिपतिश्च म उपागुंसश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतग्रहाश्च मेति ग्राह्याश्च मैन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्पतेयाश्च मे माहेन्द्रश्च मादित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पाग्नेवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदश्च मे दश्नेयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे दिशवने च मे द्रोणकलशश्च मे वायव्यानि च मे पुत्रवृक्ष म आधवनीयश्च म आग्नेयेध्रम् च मे हविर्दानम् च मे ग्रहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मे व्रतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे तिथिश्च मे तिथिश्च मे द्यौश्च मे शक्वरीरङ्गुलयोतिषश्च मे यज्ञेन कल्पन्ताम्रश्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्दन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवार्च मे दित्यौहि च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवार्च मे तुर्यौहि च मे पष्ठवार्च मे पष्टौहि च म उक्षा च मे वशा च मरुषभश्च मे वेहञ्च मे नड्वाञ्च मे धेनुश्च म आयु यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताः प्राणो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रै यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पता यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वाजस्य प्रसवश्च भिजस्य क्रतुश्च सुवश्च मूर्धा च व्यस्नियश्चान्द्यायनश्चान्द्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडादेवोर्मनुर्यज्ञने बृहस्पतिरुक्ता मदानिशगुंशिषद्विश्वे देवासोर्तवाच पृथिवीवाधर्मा मायिगुंसेर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुपदिष्यामि मधुमते देवेभ्यो वाच मुद्यासगुं शुश्रूषेण्या ेभ्यस्तम्मा देवा अवन्तु शोभाय पितरो नु वदन्तु ॐ शान्ति शान्ति शान्तिः ॐ भद्रिनात्वाग्रिमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमेनागुं राजा अप्येषागुस्तपतिर्हतः अथो माता अथो पिता अथो शूरा अथो क्षुद्रा अथो कृष्णा अथो श्वेता अथो आशातिका हता श्वेता विश्व सर्वे हता आहरावद्या श्रुतस्य विशो यथा तत्सत्यम् यदमुह्यमस्य जम्भयो आदधामि तथा हि तत् कण्पन्मसि ॐ शान्ति 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 ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः मावह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनाद प्रमोदिनीम् श्रियम् देवीमुपक्वये श्रीमाम् देवी जुषताम् काम् सोऽस्मिताम् हिरण्यम् प्राकाराभाद्राञ्ज्वलन्ते तृप्ताम् तर्पयन्ते पद्मे स्थिताम् पद्मवर्णाम् तामिहोपक्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् ऋणे आदित्यवर्णे तपसोदिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसा नुदन्तु मायान्दरायाश्च वाक्या अलक्ष्मीः उपैतु माम् देवसकः कीर्तिश्च मणिना सह रातुर्भूतोऽस्मिरास्मेऽस्मिन् कीर्तिमृद्धिम् ददातु मे क्षुत्पिपासामलाञ्ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वामिर्णुद मे गृहात् गन्धद्वारान् दुरानक्षाम् नित्यपुष्टाम् करीषिणे ईश्वरीगुम् सर्वभूतानाम् तामिहोपक्वये श्रियम् मनसः काममाकोतिम् वाच सत्यमशीमहे पशूनाम् ಉಪಮನ್ನಸ್ಯ ಮಹಿಷೈ ಶಯತಾಂಯಶಃ ಕರ್ದಮೇನ ಪ್ರಜಾಭೂತ ಮಯಿ ಸಂಭವ ಕರ್ದಮ ಶ್ರೇಯಂ ವಾಸಯ ಮೇ ಕುಲೇ ಮಾತರಂ ಪದ್ಮಮಾಲಿನೀ ಆಪಸ್ರಜಂತು ಸ್ನಿಗ್ಧಾನಿ ಚಿಕ್ಲೇ ತವ ಸಮೇ ಗೃಹೇ ನಿಜ ದೇವೇ ಮಾತರಂ ಶ್ರೇಯಂ ವಾಸಯ ಮೇ ಕುಲೇ ಆರ್ದ್ರಾಂ ಪುಷ್ಕರಿಣೀಂ ಪುಷ್ಟಿಂ ಪಿಂಗಲಾಂ ಪದ್ಮಮಾಲಿನೀಂ ಚಂದ್ರಾಂ ಹಿರಣ್ಮಯೀಂ ಲಕ್ಷ್ಮೀಂ ಜಾತವೇದೋ ಮಹಾವಹ ಆರ್ದ್ರಾಂ ಯಸ್ಕರಿಣೀಂ ಯಷ್ಟಿಂ ಸುವರ್ಣಾಂ ಹೇಮಮಾಲಿನೀಂ ಸೂರ್ಯಾಂ ಹಿರಣ್ಮಯೀಂ ಲಕ್ಷ್ಮೀಂ ಜಾತವೇದೋ ಮಹಾವಹ ತಾಂ ಮಹಾವಹ ಜಾತವೇದೋ ಲಕ್ಷ್ಮೀಮನವಗಾಮಿನೀ ಯಸ್ಯಾಂ ಹಿರಣ್ಯಂ ಪ್ರಭೂತಂ ಗಾವೋ ದಾಸ್ಯೋಶ್ವಾನ್ ನಿರ್ನೇಯಂ ಪುರುಷಾನಹಂ ಯಶುಚಿ ಪ್ರಯತೋ ಭೂತ್ವಾ ಯೋಯಾದಾಜ್ಯಮನ್ವಹಂ ಶ್ರಿಯ ಪಂಚದಶ ಚಂಚ ಶ್ರೀಕಾಮ ಸತತಂ ಜಪೇತ್ ಪದ್ಮಾನನೆ ಪದ್ಮೂರು ಪದ್ಮಾಕ್ಷಿ ಪದ್ಮಸಂಭವೇ ತ್ವಂ ಮಾಂ ಭಜಸ್ವ ಪದ್ಮಾಕ್ಷಿ ಯೇನ ಸೌಖ್ಯಂ ಲವಾಮ್ಯಹಂ ಅಶ್ವದಾಯಿ ಗೋದಾಯಿ ಧನದಾಯಿ ಮಹಾಧನೆ ಧನಂ ಮೇ ಜುಷತಾಂ ದೇವಿ ಸರ್ವಕಾಮಾಶ್ಚ ದೇಹಿ ಮೇ ಪುತ್ರ ಪೌತ್ರ ಧನಂ ಧಾನ್ಯಂ ಅಶ್ಚಶ್ವಾದಿ ಗವೇರಥಂ ಪ್ರಜಾನಾಂ ಭವಸಿ ಮಾತ ಆಯುಷ್ಮಂತಂ ಕರೋತು ಮಾಂ ಧನಮಗ್ನಿರ್ಧನಂ ವಾಯು ಧನಂ ಶ್ರೌರ್ಯೋ ಧನಂ ವಸುಃ ಧನಮಿಂದ್ರೋ ಬೃಹಸ್ಪತಿರ್ ವರುಣಂ ಧನಮಶ್ನುತೇ ವೈನತೇಹ ಸೋಮಂ ಪಿಬ ಸೋಮಂ ಪಿಬತು ವೃತ್ರಃ ಸೋಮಂ ಧನಸ್ಯ ಸೋಮಿನೋ ಮಹ್ಯಂ ದದಾತು ಸೋಮಿನಃ ನ ಕ್ರೋಧೋ ನ ಚ ಮಾತ್ಸರ್ಯಂ ನ ಲೋಭೋ ನಾಶುಭಾಮತಿಃ ಭವಂತಿ ಕೃತ ಪುಣ್ಯಾನಾಂ ಭಕ್ತಾನಾಂ ಶ್ರೀ ಸೂಕ್ತಂ ಜಪೇತ್ ಸದಾ ವರ್ಷಂತು ತೇ ವಿಭಾವೈ ದಿವೋ ಅಭ್ರಸ್ಯ ವಿದ್ಯುತಃ ರೋಹಂತು ಸರ್ವಬೀಜಾನ್ಯವಬ್ರಹ್ಮ ದ್ವಿಷೋಚಹಿ ಪದ್ಮ ಪ್ರಿಯೇ ಪದ್ಮಿನಿ ಪದ್ಮಹಸ್ತೇ ಪದ್ಮಾಲಯೇ ಪದ್ಮದಲಾಯತಾಕ್ಷೇ ವಿಶ್ವ ಪ್ರಿಯೇ ವಿಷ್ಣು ಮನೋನುಕೂಲೇ ತ್ವತ್ಪಾದ ಪದ್ಮಂ ಮಯಿ ಸನ್ನಿಧಸ್ವ ಯಾ ಸಾ ಪದ್ಮಾಸನಸ್ಥಾ ವಿಪುಲ ಕಣಿದಣಿ ಪದ್ಮಪತ್ರಾಯತಾಕ್ಷೇ ಗಂಭೀರಾವರ್ತನಾಭಿಸ್ತನ ಭರನಭಿತಾ ಶುಭ್ರವಸ್ತ್ರೋತ್ತರೀಯಾಂ ಲಕ್ಷ್ಮೀರ್ದಿವ್ಯೈ ಗಜೇಂದ್ರೈರ್ಮಣಿಗಣಖಚಿತೈ ಸ್ನಾಪಿತಾ ಹೇಮಕುಂಭೈಃ ನಿತ್ಯಂ ಸಾ ಪದ್ಮಹಸ್ತಾ ಮಮ ವಸತು ಗೃಹೇ ಸರ್ವಮಾಂಗಲ್ಯಯುಕ್ತಾಂ ಲಕ್ಷ್ಮೀಂ ಶೀಲಸಮುದ್ರರಾಜತನಯಾ ಶ್ರೀರಂಗಧಾಮೇಶ್ವರೀಂ ದಾಸೀಭೂತ ಸಮಸ್ತ ದೇವವಲಿತಾಂ ಲೋಕೈಕದೀಪಾಂಕುರಾಂ ಶ್ರೀಮನ್ಮಂದಕಟಾಕ್ಷಲಬ್ಧ ವಿಭವ ಬ್ರಹ್ಮೇಂದ್ರ ಗಂಗಾಧರಾಂ ತ್ವಾಂ ತ್ರೈಲೋಕ್ಯ ಕುಟುಂಬಿನೀಂ ಸರಸಿಜಾಂ ವಂದೇ ಮುಕುಂದ ಪ್ರಿಯಾಂ ಸಿದ್ಧಲಕ್ಷ್ಮೀರ್ಮೋಕ್ಷಲಕ್ಷ್ಮೀರ್ ಜಯಲಕ್ಷ್ಮೀ ಸರಸ್ವತೀ ಶ್ರೀಲಕ್ಷ್ಮೀರ್ವರಲಕ್ಷ್ಮೀ ಚ ಪ್ರಸನ್ನ ಮಮ ಸರ್ವದಾ ವರಾಂಕುಶೋಪಾಶಮಭೀತಿ ಮುದ್ರಾ ಕರೈರ್ವಹಂತೀ ಕಮಲಾಸನಸ್ಥಾ ಬಾಲಾರ್ಕ ಕೋಟಿ ಪ್ರತಿಭಾಂ ತ್ರಿನೇತ್ರ ವಜೇಹಮಂಬಾಂ ಜಗದೀಶ್ವರೀಂ ತ್ವಾಂ ಸರ್ವಮಂಗಲಮಾಂಗಲ್ಯೇ ಶಿವೇ ಸರ್ವಾರ್ಥಸಾಧಿಕೇ ಶರಣ್ಯೇ ತ್ರಯಂಬಕೆ ದೇವೇ ನಾರಾಯಣಿ ನಮೋಸ್ತುತೇ ಮಹಾಲಕ್ಷ್ಮೀ ಚ ವಿದ್ಮಹೇ ವಿಷ್ಣುಪತ್ನೀ ಚ ಧೀಮಹೇ तन्नो लक्ष्मी प्रचोदयात्। स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महेशाः। गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु। ॐ शान्ति शान्ति शान्तिः।